देयासुर्मूर्त्नि राजसरससुरसरित् पारपर्यन्ता निर्यत्प्रांशुस्तम्भाः पिशङ्गास्तुलितपरिणता रक्तशालीलता वः दुर्वारापत्तिगर्तश्रिता निखिलजनोत्तारणे रज्जुभूता घोरापोर्वीरुहाली दहनशिखिशिखाः शर्मशार्वाः कपर्ताः कुर्वन्निर्वाणमार्गप्रगम परिलसद्रूप्य सोपानशङ्कां शक्रारीणां पुराणां त्रयविजयकृत स्पृष्टरेखायमाणम् अव्याद व्याजमुच्चैरलिक हिमधरादित्य कान्तस्त्रीधोत्यच्चाह्नव्याभम् मृडानीकमितुरुडुपरुक्पाण्डुरम् वस्त्रिपुकट्रम् कृत्यत्कौरीप्रसादानतिसमय पदाङ्गुष्टसङ्क्रान्तलाक्षा बिन्दुस्पर्थिस्मरारेः स्फटिकमणिदृशन्मग्न माणिक्यशोभम् मूर्धन्युद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्तादस्तोकापत्तिकृत्यै हुतवः कणकामोक्षरोक्षं सदाक्षी भूत्यै दृक्पूतयोः स्याद्यदहिमहि मरुद्बिम्बयो स्निग्धवर्णो दैत्यौघध्वंससंसी स्फुट इव परिवेशावशेषो विभाति सर्गस्थित्यन्तवृत्तिर्मयी समुपगतेतीव निर्वृत्तगर्वम् शार्वाणी भर्तुरुच्चैर्युगल मददधद्विभ्रमं रत्प्रुवोर्वः युग्मे रुक्माब्ज पिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दूहित्रा शैलस्य ध्वान्त नीलाम्बररचिता बृहत्कञ्चुको भूप्रपञ्चः ते त्रैनेत्री पवित्रे त्रिदशवरघटामित्र जैत्रोग्रशस्त्रे नेत्रे नेत्रे भवेताम् द्रुतमिह भवतामिन्द्रियाश्वन्नियन्तुम् प्रोद्यत्कण्डं विनेतुं वितनुतैव ये रत्नकोणैर्विकृष्टिम् ಸದತಿ ಧವಲಾಹೀಂದ್ರ ಶಂಕಾ ದಧಾನಃ ಯುಷ್ಮಾಕಂ ಕಮ್ರವಕ್ರಾಂಬುರುಃ ಪರಿಲಸತ್ ಕರ್ಣಿಕಾಕಾರ ಶೋಭಃ ಶಶ್ವತ್ರೋಣಾಯ ಭೂಯಾದಸಮತಿ ವಿಮಲೋತ್ತುಂಗಕೋಣಃ ಸಘೋಣಃ ಕೃತ್ಯತ್ಯತ್ಯಾಯಯೋಃ ಸ್ವಾಂ ತನುಮತಿಲಸತೋರ್ಬಿಂಬತಾಂ ಲಕ್ಷಯಂತಿ ಭರ್ತ್ರೇ ಸ್ಪರ್ಧಾತಿ ನಿಘ್ನಾ ಮುಹುರಿತರವಧೂ ಶಂಕಯಾ ಶೈಲಕನ್ಯಾ ಯುಷ್ಮಾಸ್ತೌ ಶಶ್ವದುಚ್ಚೈರಬಹುದಶಮೀ ಸರ್ವರೀಶಾತಿಶುಭ್ರಾ ವವ್ಯಾಸ್ತಾಂ ದಿವ್ಯಸಿಂಧೂಃ ಕಮಿತುರವ ನಮಲ್ಲೋಕಪಾಲೌ ಯೋಭಾಸಾ ಭಾತ್ಯುಪಾಂತಸ್ಥಿತೈವಾ ನಿಭೃತಂ ಕೌಸ್ತುಭೋ ದ್ರಷ್ಟುಮಿಚ್ಚನ್ ಸೋತ್ಥ ಸ್ನೇಹಾನ್ವಿತಾಂತಂ ಗಳಗತಗರಳಂ ಪತ್ಯುರುಚ್ಚೈಃ ಪಶೂನಾಂ ಪ್ರೋದ್ಯತ್ ಪ್ರೇಮ್ಣಾ ಯಮಾರ್ದ್ರಾ ಪಿಬತಿ ಗಿರಿಸುತಾ ಸಂಪದಃ ಸಾತಿರೇಕಾ ಲೋಕಾಶೋಣೀಕೃತಾಂತಾ ಯದಧರ ಮಹಸಾ ಸೋಧರೋ ವಿಧತ್ತಾಂ ಸೋದರೋ ವಿಧತ್ತಾಂ ಅತ್ಯರ್ಥಂ ರಾಜತಿ ಯಾವದನ ಶಶಿಧರಾದುತ್ಕಲ ಚಾರುವಾಣಿ ಪಿಯೂಷಾಂಭ ಪ್ರವಾಹ ಪ್ರಸರ ಪರಿಲಸತ್ ಫೇನ ಬಿಂದ್ವಾವಳೀವ ದೇಯಾತ್ ಸಾ ದಂತ ಪಂಕ್ತಿಶ್ಚಿರಮಿಹ ದನುದಾಯಾದದೌವಾರಿಕಸ್ಯ ದ್ಯುತ್ಯಾದೀಪ್ತೇಂದು ಕುಂದಚ್ಚ ವಿರಮಲತರ ಪ್ರೋನ್ನತಾಗ್ರಾಮುದಂ ವಹ ನ್ಯಕ್ಕುರ್ವನ್ನುರ್ವರಾಭೃನ್ನಿಭ ಘನಸಮಯೋತ್ಕೃಷ್ಟಮೇಘೌಘಘೋಷಂ ಸ್ಫೂರ್ಜತ್ವಾರ್ದ್ಯುತ್ಥಿತೋರು ಧ್ವನಿತಮಪಿ ಪರಬ್ರಹ್ಮಭೂತೋ ಗಭೀರಃ ಸುವ್ಯಕ್ತೋ ವ್ಯಕ್ತಮೂರ್ತೇಃ ಪ್ರಕಟಿತರಣಃ ಪ್ರಾಣನಾಥಸ್ಯ ಸತ್ಯಾಃ ಪ್ರೀತ್ಯಾವಹ ಸಂವಿದಧ್ಯಾತ್ ఫల వికలనులం జన్మనాథ సనాథ భాసాయస్య త్రిలోకీ లసతి పరిలసత్పేన బిందుర్నవాంతర్వ్యామగ్నే వాతి గౌరస్తులిత సురసరీ ద్వారి పూర ప్రసారః పీనాత్మా దంతభాభిః వృషమహహ కారాతి భీమః సదేష్టాం పుష్టాం తుష్టీం కృషీష్ట స్ఫుటమిహ భవతా మట్టహాసోష్టమూర్తే సత్యోజాతాఖ్యమాప్యం యదు విమలముదగ్వర్తి యద్వామదేవం నామ్నా హేమ్నా సదృక్షం జలదనిభమఘోరాహ్వయం దక్షిణం యత్ యద్బాలార్క ప్రభం తత్పురుష నిగదితం పూర్వమీశాన సంజ్ఞం యద్దివ్యం తాని శంభోర్భవదభిలషితం పంచదద్యుర్ముఖాని ఆత్మప్రేమ్నా భవాన్య స్వయమివ రచితాః సాదరం సాంవసన్యామశ్యాతిస్రః సునీలాంజననిభ గరరేఖాః సమాభాంతి అస్యాం ఆకల్పానల్పభాసా మృషరుచిరతరా కంబుకల్పాంబికాయాః పత్యుః సాత్యంతమంతర్విలసతు సతతం మంథరా కంధరా వక్త్రాందోర్దంతలక్ష్మ్యాశ్చిరమదర మహాకౌస్తుభస్యాంతరాళే సోత్థానాం ప్రార్థయన్యః స్థితమచల భువే వారయంత్యై నివేశం ప్రాయుంక్తే వాశిషోయః ప్రతిపదమమృతత్వే స్థితః కాలశత్రోః కాలం కుర్వన్ గళం వో హృదయమలమలం క్షాళయేత్ కాలకూట ప్రౌఢప్రేమాకులాయ దృఢతర పరిరంభేషు పర్వేందుముఖ్యాః పార్వత్యాశ్చారు చామీకర వలయ పదైరంకితం కాంతిశాలి రంగన్నాగాంగదాఢ్యం సతతమవిహితం కర్మ నిర్మూలయేత్ తత్తోర్మూలం నిర్మలం యద్ధృది దురితమపాస్యార్జితం ధూర్జటేర్వః కంఠాశ్లేషం సమాప్తాదివ ఇవ కమితుః స్వర్గసింధోః प्रवाहाः कान्त्यै संसारसिन्धोः स्फटिकमणि महासंक्रमाकारदीर्घाः बाहावस्ताहरस्य द्रुतमिह निवहानं हसां संहरन्तु वक्षो दक्षद्विशोलं स्मरभरविनमद्दक्षजा क्षीणवक्षो जान्तर्निक्षिप्त शुम्भन्मलयजमिलितोद्भासि भस्मोक्षितं यत् क्षिप्रं तद्रूक्ष चक्षुः श्रुतिगण फणरत्नौघ भीक्ष्णशोभं युष्माकं शश्वदेनः स्फटिकमणिशिला कुण्डलाभं क्षिणोतु मुक्ता मुक्ते विचित्राकुलवविलहरी जालशालिन्य वाञ्छन्नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले युक्मच्चित्र त्रिधाम प्रति नवरुचिरे मन्दिरे कान्तिलक्ष्म्याः सीतां सीतां सुगौरे चिरतरमुदर क्षीरसिन्धौ सलीलम् वैयाक्रियत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः सान्द्रावस्याय मिश्रा परितैव वृता नीलजीमूतमाला आबद्धाहीन्द्र काञ्ची गुणमतिपृथुलं शैलजा क्रीडभूमिः तत्त्वो निःश्रेयसे स्याः जघनमतिघनं बालसीतांशुमौळेः पुष्टावष्टं भभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः सम्यक्वृत्तौ सुरेन्द्रद्विरद वरकरोदारकान्तिं दधानौ सारावो रूपुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् आनन्दा येन्दुकान्तोपलरचिता समुद्रायते ये मुनीनां चित्तारर्षं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि काञ्चीभोगीन्द्रमूर्त्ना प्रति मुहुरुपधानाय मानेन माने कान्ते स्तामन्तरारेर्द्युतिविजित सुधा भानुनी जानुनी वा प्रवरगण फणामण्डलान्तर्नितान्तव्यादीर्घानर्घ रत्नद्युति किसलयिते स्तूयमानेद्युपद्भिः बिभ्रत्यो विभ्रमं वः स्फटिकमणि बृहद्दण्डवद्भासिते ये जङ्घे शङ्खेन्दुशुभ्रे वृषमः भवतां मानसे शूलपाणेः अस्तोक स्तोमशस्त्रैरपचितममलां भूरिभावोपहारैः कुर्वद्भित्सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलादैः सम्यक् सम्पूज्यमाना विह हृदि सरसीवानिशं युष्मदीये सर्वस्य क्रीडतां तौ प्रपदवर बृहत्कच्च पावच्च भासौ याः स्वस्त्यैकांश पान्तादतिबहुल गलद्रक्तवक्त्रं प्रणुन्न प्राणं प्राकोषयन् प्राङ्मियमजलधरं चालयन्तदशास्यं पादाङ्गुल्यो दिशन्तु द्रुतमयुगदृशः कल्मषप्लोषकल्याः कल्याणं पुल्लमाल्यप्रकर विलसितावः प्रणद्दाहिवल्यः प्रह्वः प्राचीनबर्हिः प्रमुखसुरवर प्रस्फुरन्मौळिसत्ता जाये रत्नोत्करोस्त्रैरविरतममला भूरिनीराजिताया प्रोदग्राग्रा प्रदेयात्ततिरिव रुचिरातारकाणां नितान्तं नीलग्रीवस्य पादाम्बुरुह विलसितासानखाली सुखं वह आ सत्याः सत्याननिन्दावपि सविधगते ये विकाशं दधाते स्वान्ते स्वान्ते लभन्ते श्रियमिह सरसीवामराये दधानाः लोलं लोलं बकानां कुलमिव सुदियां सेवते ये सदास्तां भूत्यै भूत्येण पाणेः विमलतररुचस्ते पदाम्भोरुहेवः परिषन्मूर्त्नि शेषाय मानः श्रीकण्ठस्यारुणोद्यच्चरण सरसिज प्रोत्थितास्ते भवाख्यात् पारावाराचिरं वो दुरितहति कृतस्तारयेयुः परागाः। भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परन्धामधाम्नां साम्नामाम्नाय तत्त्वं यदपि च परमं यद्गुणातीतमाद्यं यच्चां हौहन्निरीहम् गहनमिति मुहुः प्राहुरुच्चैर्महन्तो माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु। इति श्री शंकराचार्य विरचितं श्री शिवकेशादि पादांत वर्णन स्तोत्रं संपूर्णम्।